ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। श्रीशुक उवाच, कुशस्य चातिथिस्तस्मान् निषदस्तत्सुतो नवः, पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वा भवत्ततः, देवानीकस्ततो नीहः पारियात्रोऽथ तत्सुतः, ततो बलस्थलस्तस्मात् वज्रनाभोऽर्कसम्भवः, खगणस्तत्सुतस्तस्मात् विधृतिश्चाभवत्सुतः, ततो हिरण्यनाभोऽभूत् योगाचार्यस्तु जैमिनेः, शिष्यः कौसल्य आध्यात्मं याज्ञवल्क्योऽध्यगात् यतः, योगं महोदयमृषिहृदयग्रन्थिभेदकं, पुष्यो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत्, सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुःसुतः, योऽसावास्ते योगसिद्धः कलापग्राममाश्रितः, कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः, तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः, महस्वांस्तत्सुतस्तस्मात् विश्वसहव्योऽन्वजायत, ततः प्रसेनजित्तस्मात् तक्षको भविता पुनः, ततो बृहद्बलो यस्तु पित्रा ते समरे हतः, एते हि इक्ष्वाकुभूपाला अतीता शृण्वनागतान्, बृहद्बलस्य भविता पुत्रो नाम बृहद्रणः, उरुक्रियस्ततस्तस्य वत्सवृद्धो भविष्यति, पृथिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः, सह देवस्ततो वीरो बृहदश्वोऽथ भानुमान्, प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः, भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः, तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित्, बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः, रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः, तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः, ततः प्रसेनजित्तस्मात् क्षुद्रको भविता ततः, रणको भविता तस्मात् सुरथस्तनयस्ततः, सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः, इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति, यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वैकलौ। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे इक्ष्वाकुवंशवर्णनम् नाम द्वादशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।